एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रतिनिधि सभायाः ह्यस्तनोपवेशेन विलोपितानां व्यक्तिनाम् अनुसन्धान सत्य निरूपण मेला आयोगेन सम्बद्धम् एतत् विक्रमवर्षीयं तृतीय संशोधन विधेयकं पारितीकृतं वर्तते। विधि न्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया इत्यनेन विधि न्याय मानवाधिकार समितेः प्रतिवेदनेन सहितं विधेयकमेतत् पारितीक्रियताम् इत्युक्त्वा प्रस्तुतः प्रस्तावः सभया पारितीकृतम् वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशम् सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली नेपालस्य शान्ति प्रक्रिया विश्वस्यैव कृते उदाहरणीय रूपेण अग्रेवर्धितमस्तीति प्रावोचत्। प्रधानमन्त्री ओली शान्ति प्रक्रियायाः प्रारम्भणस्य अष्टादश वर्षाणां पश्चात् संक्रमणकालिक न्याय सम्बद्ध विधौ सहमतेः धरणं शान्ते पक्षधराणां जनानां कृते सुखकर विषयोस्तीति प्रत्यपादयत्। प्रधानमन्त्री ओली सहमत्या विधि पारितीकरणस्य चरणे प्राप्तोऽस्ति, विधेः क्रियान्वयनाय सर्वकारेण यथेष्टं सहजीकरणं विधास्यते, सहमत्या आयोगः निर्मास्यन्ते चेति प्रतिबद्धतां व्यक्तवान्। तदवसरे प्रधानमन्त्री केपी शर्मा ओली संघीयतायाः गणतन्त्रस्य च मूल्यमान्यतानां विपरीततया संविधानं न संशोधयिष्यते इति स्पष्टीकृतवान्। उपवेशे नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा द्वन्द्वकालिक न्याय सम्बद्ध विधेयकस्य पारिति भवनानन्तरम् अतः परं द्वन्द्वस्य सर्वै पक्षैः न्यायप्राप्तिः अनुभूतिः करिष्यते इति विश्वासं व्यक्तवान्। सभापतिः देउवा विधेयकेन अनेन संक्रमणकालिक न्यायस्य सर्वाः आधारभूत मान्यताः ऊढा सन्तीति चर्चयन् संक्रमणकालिक न्यायं निष्कर्षं प्रापयितुम् अन्तर्राष्ट्रिय विधिमपि दृष्टिगतं विधाय विधेयकम् अग्रेवर्धितमस्तीति अवदत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः नेपालस्य शान्ति प्रक्रिया विश्वस्यैव उदाहरणीय शान्ति प्रक्रियास्तीति न्यश्चिनोत्। अध्यक्षः प्रचण्डः नेपालस्य शान्ति प्रक्रियायाः अनुभवः मौलिकोऽस्तीति भाषमाणः देशस्य मृदि संस्कृतौ च वर्धितायां शान्ति प्रक्रियायाम् अस्याम् अन्य देशानाम् अनुकरणं विहितं नास्तीति समस्पष्टयत्। उपवेशे नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः नेपालस्य राजनीतिक दलैः स्वस्य मौलिकरूपेण शान्ति प्रक्रिया अग्रे वर्धाप्य सहमतौ प्रापितास्तीति समस्पष्टयत्। एवमेव विधेयकस्य विमर्शने सांसदः संशोधन विधेयके मानवाधिकारोल्लंघनस्य प्रावधाने मेलक्षेमादानयोः विषयः स्थापितोऽस्तीति चर्चयन् सम्बद्धजनेभ्य न्यायं प्रदातुं प्रभावकारिणी संरचना आवश्यकी अस्तीति बलं प्रादुः। विधेयकस्य विमर्शने नेकपा एमाले दलस्य मुख्य सचेतक पदीयो महेश बर्तौला, रासोपा दलस्य अध्यक्ष रवि लामिछाने, राप्रपा दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन, सांसद रंजु कुमारी झा, अब्दुल खान, रामप्रकाश चौधरी, गंगाराम चौधरी, प्रेम सुवालह, चित्रबहादुर केसी, प्रभु शाह, डाक्टर अमरेश कुमार सिंह, योगेन्द्र मण्डलस्य भागं गृहीतवन्तः। विधेयकस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् विधि मन्त्री अजय कुमार चौरसिया दीर्घकालात् अवरुद्धानि शान्ति प्रक्रियायाः अवशिष्टानि कार्याणि निष्कर्षे प्रापयितुं विधेयकं महत्वपूर्णमस्तीति प्रावोचत्। विधि मन्त्री चौरसिया समेषां दलानां सहमतौ सर्वोच्च न्यायालयस्य आदेशम् अन्तर्राष्ट्रिय विधिं मान्यतांश विचार्य विधेयकमेतत् पीड़ित मैत्री सम्पादितमस्तीति असूचयत्। प्रतिनिधिसभायाः अपरोपवेशः आगामिनो भाद्रमासस्य षष्ठे दिवसे बृहस्पतिवासरे दिवा एकवादने वस्ता। प्रधानमन्त्री केपी शर्मा ओली काठमाण्डु विश्वविद्यालय धुलीखेल चिकित्सालययोः न्यूनतमं पञ्चवर्षाणि यावत् सहकार्यं कृत्वा कार्याणि विधातुं निर्दिशति। बालुवाचारवर्तिनि प्रधानमन्त्री निवासे ह्य काठमाण्डु विश्वविद्यालयस्य सप्तनवतितम्यां सभायां विश्वविद्यालयस्य कुलपतिः प्रधानमन्त्री च ओली विश्वविद्यालयस्य चिकित्सालयस्य च मध्ये दृष्टाः समस्याः विमृश्य समाधातुं निरदिशत्। धुलीखेल चिकित्सालयेन प्रदेश सर्वकारात् आत्मानं प्रतिष्ठानस्य रूपेण अग्रे वर्धयितुं स्वीकृति ग्रहणाय पूर्व कार्याणि विधीयमानानि आसन्। विश्वविद्यालयेन च चिकित्सालयं स्वस्यैव अन्तर्गतं स्थापयितुम् इप्सितम् आसीत् इत्यवस्थायां विवादस्य स्थितिः समुत्पन्ना वर्तते। संघीय संसद संसदीय श्रवण समिति राज्य निर्देशक सिद्धांत नीति दायित्व क्रियान्वयनागमन मूल्यांकन समिति सभापति पदे प्रतिपदम एक नैव जनेन प्रत्याशिता प्रस्तुता वर्तते। श्रवण समिति सभापति पदे नेपाली कांग्रेस दलस्य नेत्रेहा समिति सदस्यस्य च ईश्वरी देवी नेउपाने इत्यस्यः राज्यस्य निर्देशक सिद्धांत समिति पदे नेकपा एमाले दलस्य नेतुः समिति सदस्यस्य ठाकुर प्रसाद गैरे इत्यस्य च प्रत्याशिता पंजीकृता स्थिति संसद सचिवालयस्य महासचिवेन पद्म प्रसाद पाण्डेयेन प्रकाशितायां सूचनायाम् उल्लिखितमस्ति। समितेः सभापतेः निर्वाचनाय अद्य त्रिवादने उपविश्यमाने उपवेशे प्रस्तावकेन प्रस्तावस्य प्रस्तुतेः समर्थकेन समर्थनस्य च अनन्तरं प्रस्तावः निर्णयार्थं प्रस्तूयते इति निर्वाचन सम्बद्धायां सूचनायाम् उल्लिखितं वर्तते। सुदूर पश्चिम प्रदेशस्य मुख्यमन्त्रिणा कमलबहादुर शाहेन विश्वासस्य मतं प्राप्तमस्ति। प्रदेशसभायाः ह्यस्तनोपवेशे मुख्यमन्त्रिणा शाहेन प्रस्तुतस्य विश्वासमतग्रहण सम्बद्ध प्रस्तावस्य पक्षे 37 मतानि विपक्षे च 8 मतानि व्यक्तानि सन्ति। 53 सदस्यात्मिकायां प्रदेशसभायाम् उपवेशे 45 प्रदेशसभा सदस्याः उपस्थिताः आसन्। तत्र विश्वासस्य मतस्य पक्षे नेपाली कांग्रेस दलस्य 18, नेकपा एमाले दलस्य 11, नागरिकोन्मुक्ति दलस्य 17 प्रदेशसभा सदस्याः मतदानं विहितवन्तः। माओवादी केन्द्र एकीकृत समाजवादी दलयोः 8 सांसदः विश्वासस्य मतस्य विपक्षे मतदानं कृतवन्तः, एकं मतं तटस्थम् आसीत्। अत्रान्तरे लुम्बिनी प्रदेशस्य मुख्यमन्त्री चेतनारायण आचार्यः भाद्रमासस्य चतुर्थे दिवसे विश्वासस्य मतं गृहीता। भाद्रमासस्य चतुर्थ दिवसस्य लुम्बिनी प्रदेशसभायाः उपवेशे मुख्यमन्त्रिणः आचार्यस्य विश्वासस्य मतग्रहणस्य कार्यसूची निर्धारिता स्थिति प्रदेशसभायाः सचिवः दुर्लभ पूर्णमगरः असूचयत्। नेकपा एमाले नेपाली कांग्रेस दलयोः 50 सदस्यानां समर्थनेन अस्यैव श्रावणस्य सप्तमे दिवसे आचार्यः मुख्यमन्त्री पदे नियुक्तः आसीत्। स्वास्थ्य जनसंख्या मन्त्रालयेन अन्येषु 5 प्रदेशेषु अर्बुदोपचार सेवायाः विस्ताराय निर्णीतम् वर्तते इति समाचारः।